ॐ श्री परमात्मने नमः। अथ सप्तमोऽध्यायः। श्री भगवान उवाच। सप्तमनः पार्थ योगं जन्म दाशयः असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु। ज्ञानं ते हंस विज्ञान क्षाम्यशेषतः यज्ञात्वा नेह भूयो ज्ञातव्यमवशिष्यते। मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। तामपि सिद्धानां पश्चिन्मां वेत्ति तत्त्वतः। भूमिरापो नरो वायुः खं मनो बुद्धिरेव च। अहंकार इति यं मे प्रकृतिरष्टधा। अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो येदं धार्यते जगत्। जगतः प्रभव प्रलयस्तथा। मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोक्तं सूत्रे मणिगणा इव। भक्त्यर्थ महां स च मम प्रियः उदारः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमाङ्गतिम् बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः प्रकृत्या नियताः स्वया यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति अस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्
तत्सत् श्रीमद्भगवद्गीता सूपनिषत्सु
ब्रह्म विद्यायां योग शास्त्रे श्री कृष्णार्जुन संवादे ज्ञान विज्ञान योगो नाम सप्तमः।